धारावरा मरुतो धृष्मा ओजसो मृगान भीमास्तविषेभिरर्चिनः अग्नजो नशुशुचानार्जेषिणो भ्रमिन्धमन्तो अपगा अवृण्वत द्यावो नस्त्रभिश्चिदयन्तखादिनो व्या अभ्रजानद्युदयन्तभ्रष्टयाः रुद्रो यद्वा मरुतो रुक्मवक्षसो वृषादनिभृष्ण्या शुक्र ऊधनि उक्षन्ते अश्वाम् अत्याम् इवादिषु नदस्य कर्णैस्तुरयन्त आशुभिः हिरण्यशिप्रा मरुतो दविध्वतः प्रक्षय्याथ वृषतेभिः समन्यवः प्रक्षेता विश्वा भुवनाभवक्षिरे मित्राय वासदमाजीरदानवः पृषदश्वासो अनवभ्रराधसर्जिप्यासो न वयुनेषु धोर्षदाः इन्धन्वभिर्धेनुभिरप्सदोधभिरद्धस्मभिः पथिभिर्भ्राजदृष्टयः आहंसासो न स्वसराणि गन्धनमधोर्मदाजमरुतः समन्यवः आनो ब्रह्माणि मरुतः समन्यवो नरान्नशंसः सवनानि गन्धन अश्वामिव पिप्यत धेनुमोदनि कर्ताधियम् जरित्रे वाजपेशसाम् तन्नो दातमरुतो बाधिनम् रथ आपानम् ब्रह्मचितयद्दिवे दिवे इषम् स्तोतृभ्यो वृजनेषु कारवे सनिम् मेधामरिष्टम् दुष्टरम् सहाः यद्युञ्जते मरुतो रुक्मवक्षसोऽश्वान्रथेषु भग आसुदानवः धेनुर्नशिष्वे स्वसरेषु बिन्वते जनाजरातः विषे महीमिषम् यो न मरुतो मृकतातिमर्त्यो रिपुर्दधेव स भो रक्षता ऋषः वर्तय तदपुषा चक्रिजाभितमवरुद्र अशसो हन्तनावधाः चित्रम् दद्वो मरुतो जामचेकिते पृष्ण्याजदो धरप्यापयो दुहुः यद्वा निदेनवमानस्य रुद्रिजास्त्रितञ्जरा जजुरतामदाभ्याः तान्वो महो मरुत एव जाम्नो विष्णो रेशस्य प्रभृथे हवामहे हिरण्यवर्णान् कगुहान् यतस्रुजो ब्रह्मण्यन्तशम् सम्राध ईमहे ते दशग्भाः प्रथमा यज्ञमो ओहिरेतेनो ओहिन्वन्दोषसा व्योष्टिष उषा न रामेररुणैरपोर्णुते महो ज्योतिषा शुचता गो अर्णसा ते क्षोडेभिररुणेभिर्नाञ्जिभिरुद्रारतस्य सदनेषु वावृधुः निमेघमाना अत्येन पाजसा सुश्चन्द्रम् वर्णम् दधिरे सुपेशसाम् त्वाम् इजानो महि परोऽथमोतज उपघेदेना नमसा गृणीमसि त्रितो न जान् पञ्चहोत्र नभिष्टज अपवर्तदपराञ्चक्रिजावसे यजा रथ्रम् पारजथात्यम् हो यजा नितो मुञ्चथ वन्दितारम् अर्वाचे सा मरुतो जाव ऊतिरोषु वाश्रेव सुमतिर्जिगातो